शिवशक्त्यायुक्तो यदि भवति शक्तः प्रभवितुम् न चेदेवम् देवो न खलु कुशलः स्पन्दितुमपि अतस्त्वामाराध्याम् हरिहरविरिञ्चादिभिरपि प्रणन्तुम् स्तोतुम् वा कथम् अकृतपुण्यः प्रभवति स्थनीयाम् सम्पांसुम् तव चरणपङ्गेरुहभवम् विरिञ्चित् सञ्चिन्वन् विरचयति लोकान विकलम् वहत्येनम् शौरिः कथमपि सहस्रेण शिरसः हरः संक्षुद्यैनम् भजति बसित उद्धूलन विधिम् अविद्यानाम् अन्तस्थिमिरमिहिरद्वीपनगरी जडानाम् चैतन्यस्तपक मकरन्तश्रुतिझरीम् दरिद्राणाम् चिन्तामणिगुणनिका जन्मजलदौ निमग्नानाम् दंष्ट्रा मुररिपु वराहस्य भवती स्वधन्यपाणिभ्याम् अभयवरदो दैवतगणः त्वमेका नैवासि प्रकटितवर अभीति अभिनया भयात्रातुम् दातुम् फलमपि च वाञ्छासमधिकम् शरण्ये लोकानाम् तव हि चरणौ एव निपुणौ हरिस्त्वामाराध्य प्रणत जन सौभाग्य जननी पुरा नारी भूत्वा पुररिमु अपि क्षोपमनयत् स्मरोऽपि त्वाम् नत्वा रतिनयन लेह्येन वपुषः मुनीनामप्यन्तः प्रभवति हि मोहाय महताम्।